नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते मुख्यतमम् प्रवक्ष्याम्यनसूयवे ज्ञानम् विज्ञानसहितम् यज्ञात्वा मोक्ष्यसे शुभात्। प्रत्यक्षावगमम् धन्यम् सुसुखम् कर्तुमव्ययम् स्यास्य परम् तप अप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्णनि मस्तानि सर्वभूतानि न जाहं तेष्वस्थितः न च मस्तानि भूतानि पश्यमे सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानि उपधारय विसृजामि ಕ್ರಿಯಾಮಂ ಕೃಷ್ಣಂ ಅವಶಂ ಪ್ರಕೃತೇ ವಶಾತ್. ನ ಚ ಮಾತಾನಿ ಕರ್ಮಾಣಿ ನಿಬದ್ಧಂತಿ ಧನಂಜಯ ಉದಾಸೀನವರಾಸೀನಂ ಅಸಕ್ತಂ ತೇಷು ಕರ್ಮ.
ಯಜಂತೋ ಮಾಂ ಉಪಾಸತೆ ಏಕತ್ವೇ
गतिर्भर्ता प्रभु साक्षी निवास शरणं सुहृत् प्रभव प्रलय स्थानं निधानं बीजमव्ययम् तपाम्यगमघं वश्यं निगृह्णामि उत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाघं अनन्याः चिन्तयन्तो माम् ये जनाः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम्। यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम्। फलम् कोऽयम् यो मे भक्त्या प्रयच्छति तदहम् भक्त्युपकृतम् अश्नामि प्रयतात्मनः। यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्। मोक्ष्यसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि। सर्वभूतेषु न वेद्वेष्योऽस्ति न प्रियः ये भजन्ति तु माम् भक्त्या मयि ते तेषु चाप्यहम्। ভাবি যে শুধু রাজারো ভজতে সম্যগ্যবসিতো হি সদা। শ্রীমদ্ভগবদ্গীতাসু উপনিষৎসু ব্রহ্মবিদ্যায়াম যোগশাস্ত্রে শ্রীকৃষ্ণার্জুন সংবাদে রাজবিদ্যা রাজগুহ্যযোগো নাম নবমোধ্যায়ঃ।